प्रवाचकः पुनीतः त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य नवदिल्ल्यां विकसित भारतं प्रति यात्रा केन्द्रीय वित्त संकल्पना इति सम्मेलनस्य उद्घाटन सत्रं सम्बोधयिष्यते। भारतीयोद्योग परिसंघेन CII इत्यनेन अस्य सम्मेलनस्य आयोजनं क्रियते, तथा च अस्योद्देश्यं विकासाय प्रशासनस्य व्यापकं दृष्टिकोणम् अथ च एतस्मिन् प्रयासे उद्योगस्य भूमिकायाः रूपरेखायाः प्रस्तुतीकरणं विद्यते। उद्योगजगतः सर्वकारस्य कूटनीतिक समुदायस्य चिन्तकानां च एकशताधिकाः प्रतिभागिनः व्यक्तिगतरूपेण सम्मेलने भागं ग्रहीष्यन्ति। सहैव देश विदेशेभ्यः च विभिन्नेभ्यः स्थलेभ्यः CII इत्यनेन केन्द्रेण सह सम्पर्कं साधयिष्यन्ति। विदेशमन्त्रिणा जयशंकरेण प्रोक्तं यत् समयोऽयं संघर्षपूर्णोऽस्ति, स्थिरतायां सुरक्षायां प्रगतौ सम्पन्नतायां वा भवतु अन्ताराष्ट्रियैः विश्वस्तमित्रैः सहयोगोऽपेक्षते। तदर्थं क्वाड इति अन्यतमः समकालीनः उदाहरणभूतोऽस्ति। जयशंकरः क्वाड इति समूहान्तर्गतानां विदेशमन्त्रिणां सम्मेलनानन्तरं वार्ताहरैः सह सम्भाषयन् टोक्यो नगरे उक्तवान् यत् एतत् सन्तोषप्रदम् अस्ति यत् कियता गाभीर्येण व्यवस्थिततया च क्वाड इत्यनेन विदेशनीतयः अन्तर्निहिताः सन्तीति। तेनोक्तं यत् अद्यतनीयम् उपवेशनं दिङ्निर्देशनदृष्ट्या महदुपकारकं वर्तते। श्रीजयशंकरः अवोचत् यत् विश्वसनीयायाः दूरसंचारप्रौद्योगिक्याः कार्याचरणम् अद्य अन्तःसागरीय सम्पर्कतन्त्रविस्तारश्च आपदुद्धाराय जलवायुकार्येभ्यः आधारभूतसंरचनाभ्यः क्षमताभिवर्धनपूर्वकं प्रशिक्षणाय आतंकवादस्य प्रतिकाराय च सहायक भूतोऽस्ति। डॉ सुब्रह्मण्यम जयशंकरः टोक्यो नगरे क्वाड इत्यस्य विदेशमन्त्रिणां सम्मेलने स्वसमकक्षैः अमेरिका ऑस्ट्रेलिया जापानस्य च विदेशमन्त्रिभिः समम् आसीत्। रक्षादिग्रहण परिषदा DAC इत्यनेन भारतीय तटरक्षकस्य क्षमतां संवर्धयितुं नवीनतमं अत्याधुनिक प्रणाल्या संयुतानां 22 इंटरसेप्टर इति नौकानां क्रयणाय स्वीकृतिः प्रदत्ता। तेषामुपयोगः तटीय निरीक्षणे अन्वेषणे उद्धार कार्यक्रमे च भविष्यति। एताः नौकाः प्रादेशिक जले त्वरितावरोधने निम्नस्तरीय जलस्य संचालने च समर्थाः सन्ति। रक्षामन्त्री राजनाथसिंहस्य अध्यक्षतायां रक्षाधिग्रहणपरिषदः सम्मेलनं ह्यः एव नवदिल्ल्यां सम्पन्नम्। लेबनान स्थितेन भारतीय दूतावासेन ह्यः भारतीय नागरिकाणां कृते यात्रा परामर्शः प्रकाशितः। अवधेयं वर्तते यत् इज़राइल देशेन लेबनानस्थितं हिजबुल्लाह दलं प्रत्यादेशः प्रदत्तः येन संघर्ष इतोऽपि संवर्धितुं शक्नोति। भारतस्य ऋतुविज्ञान विभागेन आगामिषु 5 दिनेषु हिमाचल प्रदेशे उत्तराखण्डे पूर्व राजस्थाने च व्यापकरूपेण लघुतः मध्यम पर्यन्तं वर्षाणाम् अनुमानं कृतमस्ति। आगामिषु 5 दिवसेष् जम्मूकश्मीर लद्दाख गिलगित बाल्तिस्तान मुजफ्फराबाद पंजाब हरियाणा चंडीगढ़ दिल्ली उत्तर प्रदेश पश्चिम राजस्थानेषु च विकीर्ण वृष्टेः पूर्वानुमानं कृतमस्ति। ऋतुविज्ञान विभागेन इत्यपि उक्तं यत् अद्य पूर्व राजस्थानस्य उपरि अपि च बुधवासरे पश्चिमीयोत्तर प्रदेशस्य उपरि प्रचण्डवृष्टिः सम्भवति। इति वार्ताः।